अथ द्वितीयोऽध्यायः विनियोगः। ॐ मध्यमचरित्रस्य विष्णु ऋषिः महालक्ष्मीर्देवता कुष्मिच्छन्दः शाकम्भरी शक्तिः दुर्गाबीजम् वायुस्तत्त्वम् यजुर्वेदः स्वरूपम् श्रीमहालक्ष्मी प्रीत्यर्थम् मध्यमचरित्र जपे विनियोगः। ध्यानम् परशुं गदीषु कुलिशं पद्मं धनुष्कुण्डिका दण्डं शक्तिमसिं च चर्म जलजं घण्टां सुराभाजनं शूलं पाश सुदर्शनी च ददति जीवासुरमभूद्युद्धम् पूर्णमप्रशतम् पुरा महिषे सुराणामधिपे जीवानाम् च पुरन्दरे तत्रासुरे महावीर्ये देवसैन्यम् पराजितम् जित्वा च सकला देवानिन्द्रो भूर्महिषासुरः ततः पराजिता देवा पद्मयोनिम् प्रजापतिम् पुरस्कृत्य गता सर्वत्र यथावृत्तम् तया तद्वन् महिषासुरकेशितम् विदिशा कथयामास देवाभिधावित्तरम् नीलेन्द्राग्निलेन्दूनान्यमस्य वरुणस्य च अन्येषाम् चाधिकारान् च स्वयमेवाधितिष्ठति स्वर्गानि राकृताः सर्वे तेन देवगणा भुवि विचरन्ति यथामर्त्या महिषेण दुरात्मना एतत्त्वपतितम् सर्वमपरारिविशेषितम् शरणम् सम्प्रपन्नास्तु वधस्तस्य विचिन्त्यताम् इत्थम् निशम्य देवानाम् वचांसि मधुसूदना चकार कोपम् शम्भुश्च भ्रुकुटी कुटिलाननम् चतुर्थि कोपपूर्णस्य चक्रिणो वदनात्ततः निश्चक्राममहत्तेजो ब्रह्मणः शङ्करस्य च अन्येषाम् चैव देवानाम् शक्रादीनाम् शरीरतः एकतम् स महत्तेज सञ्चैक्यम् समुपक्षत अतीव तेज सत्कूटम् ज्वलन्तमिव पर्वतम् गतिशक्ति सुरास्तत्र ज्वाला व्याप्तदिगन्तरम् अतुलम् तस्य तत्तेजः सर्वदेव शरीरदम् एकस्थम् तदभून्नारी व्याप्तलोकत्रयम् कृशाम् भवन्ति च लीला जायत सन्मुखम् यामेन चाभवन् केशा बाहवो विष्णुतेजसा सोम्येन तनयोर्युग्मम् मध्यम् चैन्द्रेण चाभवत् वारुणेन च जङ्घोरु नितम्बस्तेजसा भुवः ब्रह्मणस्तेजसा पादौ तदङ्गुल्योऽर्कतेजसा वसूनाम् च फलाङ्गुल्यः कौबेरेण च नासिका तस्यासु दन्ता सम्भूता प्राजापत्येन तेजसा नयनकृतयम् जज्ञे तथा पावक तेजसा भुवौ च सन्धयोस्तेजः श्रवणावनिलस्य
ಸಂಯುಗೇ ತತ್ರ ಕಥಾನಾಂ ಪರಿವಾರಿತಃ ಅನ್ಯೇ ಚ ತತ್ರ
संयुगे दिव्या सहस्र महासुरा कोटि कोटि सहस्रैस्तु रथानां तन्त्रिणां तथा हयानां च वृतो युद्धे तत्राभून् महिषासुरः सोमरे भिन्दे पालैश्च शक्तिभिर्मुसलैः तथा संयुगे दिव्या खड्गैः परशुपतिशैः पाशां तथा परि देवीं खड्ग प्रहारयितु सीता हन्तुं प्रजग्मु तापि देवी ततस्तानि शस्त्राण्यस्त्राणि चण्डिका कीलयैव प्रचक्षेद निज शस्त्रास्त्र वर्षिणी अनायस्तानना देवी सूर्यमाला सुरशिभिः मुमोचासुर देहेषु शस्त्राण्यस्त्राणि चेश्वरी धुत सतो दिव्या वाहन केसरी चचारासुर सैन्येषु गणेश्विव हुताशनः निःश्वासान् मुमुचेयाश्च युध्यमाना रणीम्बिका सैव सत्यः सम्भूता धराश्चत सहस्रशः युधस्ते परशुभिर्भिन्दिपालासि पट्टिशैः नाशयन्तो दुर्गणान् देवी शक्त्युपगृहिता अवादयन्त पतवान् गणाशङ्खान् तथा परि मृदङ्कांश्च तथैवानि तस्मिन् युद्धमहोत्सवे ततो देवी त्रिशूलेन गदया शक्तिदृष्टिभिः खड्गादिभिश्च शतशो निजघान महासुरान् पातयामास चैवान्यान् घण्टास्वन विमोहितान् असुरान् भुवि पाशेन बद्धाचार्यानकर्षयत् केचित् यथा कृता तीक्ष्णैः खड्गपातैः तथा परि विपोथितानि पातेन गदया भुवि शेरिते विमुश्च केचित् रुधिरम् मुसलेन भिषंहताः कीचिन्निपतिता भूमौ भिन्नाशूलेन वक्षसि निरन्तराश्चरोगेण पिताः कीचिद्रणातिरे क्षीणानुकारिणः प्राणान् मुमुच त्रिदशादनाः केषाञ्चित् बाहवश्चिन्नाश्चिन्न ग्रीवा तथा परि शिरांसि पेतुरन्येषाम् मन्ये मध्ये विदारिता विच्छिन्न जङ्घा स्वपरि पेतुरुष्ट्या महासुरा कीचबाह्मुच्छि चरणाः केचित् दिव्या द्विधा कृताः छिन्नेऽपि चान्ये शिरसि पतिताः पुनरुत्थिताः कबन्धायुयु दुर्देव्या गृहीत परमायुधाः नरतुश्चापरि तत्र युद्धे दुर्यलयाश्रिताः कबन्धाश्छिन्न शिरसः खड्गक्षत्रियेष्टि पाणयः तिष्ठ तिष्ठेति भाषन्तो देवी मन्ये महासुराः पातितैरथनागाश्वैरसुरैश्च वसुन्धरा असंयासा भवत्तत्र यत्राभूत्स महारणः शोणितौघा महान्नद्यः सत्यस्तत्र प्रसुष्टुः मध्ये चासुर सैन्यस्य वारणासुरवाजिना क्षणेन तन्महासैन्यमसुराणां तथाम्बिका निन्यक्षयन् यथा वह्निः चिरदारुमहाचयम् शतसिंहो महानादमुत्सृजन्धुथ केसरः शरीरेभ्यो मरारीणाम् सूनिव विचिन्वति दिव्या गणैश्च तैस्तत्र कृतम् युक्तम् महासुरैः यथैषाम् दुदुशुर्देवाः पुष्पवृष्टिम् चोदिवि श्रीमार्कण्डेय पुराणे सावर्णिके मन्वन्तरे देवी महात्म्ये द्वितीयः श्रीदुर्गार्पणमस्तु श्रीदुर्गार्पणमस्तु श्रीदुर्गार्पणमस्तु।